एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। काभ्रेपलाञ्चोक जनपदस्य नमोबुद्ध नगरपालिकायाः बुच्चाकोट स्थाने बसयानस्य दुर्घटनायाम् अष्टौ जनाः मृताः सन्ति। मृतकेषु चतुर्णाम् जनानाम् एव सत्यापनम् सम्भूतमस्ति। मृतकेषु रोशी ग्रामपालिकायाः सप्तम ओडा क्षेत्रस्य चतुस्त्रिंशत् वर्षीया फूलमाया तामाङ, षष्ठ ओडा क्षेत्रस्य पञ्चसप्तति वर्षीय इन्द्रबहादुर झाँक्री, षष्ठी वर्षीय प्यारीमाया तामाङ, दैलेख जनपदस्य त्रिंशत वर्षीय बमबहादुर भण्डारी च वर्तन्ते। बनेपा नगरात काभ्रेपलाञ्चोक जनपदस्य रोशी ग्रामपालिकाया सुंगुरे स्थानम् प्रति प्रस्थीयमानम् बसयानम् मार्गात अध पतितमासीत्। दुर्घटनायाम् षोडश जना आहता वर्तन्ते। आहतानाम् जनानाम् धुलीखेल चिकित्सालये उपचार जायमानोस्तीति प्रहरिणा ज्ञापितम् वर्तते। सर्वकारेण द्वापञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीयस्य सर्वकारीय सार्वजनिक भूम्यनुसन्धान संरक्षण सम्बद्धस्य उच्चस्तरीयायोगस्य प्रतिवेदनं क्रियान्वेतुं निर्णीतमस्ति। मन्त्री परिषदः यस्तनुपवेशेन विगतैक त्रिंशतो वर्षेभ्य पूर्वं द्वापञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षेण सर्वकारीय सार्वजनिक भूम्यनुसन्धान संरक्षण सम्बद्धेन उच्चस्तरीयायोगेन निर्माय तात्कालिक सर्वकाराय प्रस्तुतं प्रतिवेदनमेतत् वर्तमान सर्वकारेण क्रियान्वेतुं निर्णीतं वर्तते। सर्वोच्च न्यायालयस्य आदेशमाधृत्य आराश्रम विद्यमानायाः सर्वकारीय सार्वजनिक भूमेः व्यवस्थितम् अभिलेखम् निर्माय भूमेः संरक्षणाय वर्तमान सर्वकारेण निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः समस्पष्टयत्। एवमेव सर्वकारेण संविधान संशोधन विमर्शन पत्र निर्मातुं संघटितस्य कार्यदलस्य समयावधिम् आषाढ मासान्तं यावत् वर्धयितुं च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता मन्त्री पोखरेलः असूचयत्। एवमेव सर्वकारेण लेखामान समितेः अध्यक्ष पदे रमेश कुमार धितालः नियुक्तोऽस्तीति मन्त्री पोखरेलः अज्ञापयत्। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन एतद् विक्रम वर्षीयं विनियोजन विधेयकम्, एतद् विक्रम वर्षीयं अभौतिक सांस्कृतिक सम्पद संरक्षण सम्बद्धं विधेयकं चाधृत्य विचार्यतामिति निगद्य प्रस्तुतौ प्रस्तावौ सर्वसम्मत्या स्वीकृतौ स्तः। उपवेशे अर्थमन्त्रिणा डाक्टर स्वर्णिम वाग्ले विधेयेन एतद् विक्रम वर्षीयं विनियोजन विधेयकम्, संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा प्रस्तुतम् एतद् विक्रम वर्षीयं अभौतिक सांस्कृतिक सम्पद संरक्षण सम्बद्धं विधेयकं चाधृत्य प्रस्तुतः प्रस्तावः सभया स्वीकृतोऽस्ति। उपवेशे विनियोजन विधेयकमाधृत्य विहिते सैद्धान्तिके विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डाक्टर वाग्ले वर्तमाने व्यय वृद्धि न स्यात्, परं विकास निर्माण व्यय आधिक्येन वृद्धि स्याद् इत्यत्र सर्वकारः जागरूको वर्तते इति प्रावोचत्। विमर्शने विपक्षी दलानां सांसदाः स्थानीय स्तराणां स्रोतसाम् अनुदानानां च सुनिश्चितता नास्ति, संघीय सर्वकारेण प्राथमिकतायाः विषयेष् ध्यानं दत्तं नास्ति, मृत्युपार्जनस्य विषयोऽपि प्राथमिकतायां नास्तीति आरोपयन्तः। उपवेशे सभामुख डोलप्रसाद अर्यालः विनियोजन विधेयकस्य विभिन्नेष् मन्त्रालयगतेष् सचिवालयगतेष् च शीर्षकेष् विमर्शनस्य क्रमे उत्थापितानां प्रश्नानां विषये सम्बद्धानां मन्त्रिणाम् उत्तरप्रदानाय आषाढमासस्य प्रथमदिवसात् चतुर्थं दिवसं यावत् समयं निर्धारितवान् वर्तते। सभामुख अर्यालः विनियोजन विधेयकमाधृत्य विभिन्नानां शीर्षकाणां विमर्शने भागं ग्रहीतुं दलगत प्रातिनिध्यमाधृत्य कार्यव्यवस्था शाखायां नामानि अंकयितुम् अनुरुणत्। ह्यस्तनोपवेशे युव श्रम वृत्त्युपार्जनोद्योग वाणिज्यापूर्ति मन्त्री गौरी कुमारी अन्तर्राष्ट्रिय श्रम संघटन महासन्धि सम्बद्धान् विषयान् प्रास्तौत्। प्रतिनिधि सभायाः अपर उपवेशः परश्व आषाढ मासस्य प्रथमे दिवसे सोमवासरे दिवा एकवादने वस्ता। राष्ट्रिय सभायाः ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानमाधृत्य सामान्यं विमर्शनं सम्भूतमस्ति। विमर्शने नेपाली कांग्रेस दलस्य नारायण दत्त मिश्र, नेपाली कम्युनिष्ट दलस्य झक्कु प्रसाद सुवेदी, नेकपा एमाले दलस्य सम्झना देवकोटा, जनता समाजवादी दलस्य मोहम्मद खालिद र आयवेयकमाधृत्य विमृष्टवन्तः। एवमेव सांसदः ललितजंग साई, सुरेश कुमार आले मगर, रामकुमारी झाँक्री सर्वकारेण आनीतेन आयव्यय एकेन निम्नवर्गः न सम्बोधितः इत्यारोपं विहितवन्तः। एतत्पूर्वम् उपवेशे सांसदः सामयिक विषयेष् सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः महिला बाल बालिका लैंगिक यौनिकाल्पसंख्यक सामाजिक सुरक्षा मन्त्री सीतावादी राष्ट्रिय समावेश आयोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनम् प्रस्तुत। राष्ट्रिय सभायाः अपर उपवेशः परश्वः सोमवासरे दिवासपादैकवादने वस्ता। परराष्ट्र मन्त्री शिशिर खनालः चीन देशस्य विदेश मन्त्रिणः वांग यी इत्यस्य निमन्त्रणायां चीन देशस्य चतुर्दिवसात्मकाय भ्रमणाय श्वः रविवासरे बेजिंग नगरं प्रति प्रस्थाता। परराष्ट्र मन्त्रालयस्य अनुसारेण चीन देशे मन्त्री खनालः श्व समकक्षिणा वांग यी इत्यनेन सह नेपाल चीन सम्बन्धस्य विविधेष् विषयेष् विमृक्ष्यति। मन्त्री खनालः चीन देशस्य उच्चाधिकारिभिः सह अपि मेलवार्तां करिष्यति। मन्त्री खनालः भ्रमणं प्रपूर्य आषाढमासस्य तृतीये दिवसे स्वदेशं प्रत्यागमिष्यति। सर्वोच्च न्यायालयेन श्रमिक संघटनानां निरसनाय वर्तमान सर्वकारेण विहितस्य निर्णयस्य विरुद्धे प्रस्तुते याचिका निवेदने प्रदत्ताय अन्तरिमादेशाय नैरन्तर्यं प्रदातुम् अस्वीकृतं वर्तते। प्रधान न्यायाधीशस्य डॉ मनोज शर्मणः, न्यायाधीशानां डॉ नहकुल सुवेदिनः, विनोद शर्मणः, अब्दुल अजीज मुसलमान इत्यस्य, महेश शर्मणस्य सांविधानिक न्यायपीठे अस्यैव ज्येष्ठमासस्य विंशात् दिवसात् सम्भूतस्य श्रवणस्य ह्य समाप्तेरनन्तरम् एतत्पूर्वं प्रदत्ताय अन्तरिमादेशाय नैरन्तर्यं प्रदातुम् अस्वीकृतमस्ति। न्यायालयस्य आदेशानन्तरं श्रमिक संघटनानां निरसनस्य निर्णयं क्रियान्वेतुं सर्वकाराय मार्गः सहजः सम्भूतोऽस्ति। शिक्षा खेलकूद मन्त्रालयेन अध्ययन पारपत्र परामर्शस्य विषये कर्मचारिणां संलग्नताया सम्बन्धे अनुसन्धानाय मन्त्रालयस्य सहसचिवस्य चन्द्रकान्त भूषालस्य संयोजकत्वे समितिः संघटिता अस्ति। अध्ययन पारपत्रस्य परामर्शस्य विषये प्रस्तुतानां प्रपत्राणां कृत्रिमतायाः विषये तत्र मन्त्रालयस्य कर्मचारिणां सम्भावितायाः संलग्नतायाः विषयस्य अनुसन्धातुं मन्त्रिस्तरीयस्य निर्णयस्य अनुसारेण समितिः संघटिता अस्ति इति ज्ञापितं वर्तते। मन्त्रालयस्य अनुसारेण वाल्मीकि विद्यापीठस्य नाम्ना अध्ययन पारपत्रार्थं प्रस्तुतानि प्रपत्राणि कृत्रिमाणि सन्ति इति प्राप्तेः पश्चात् तेषाम् अध्ययनार्थम् अनुसन्धान प्रक्रिया अग्रे वर्धिता अस्ति। कैलाली जनपदस्य गोदावरी स्थाने जलप्लवे निमज्य द्वौ जनौ मृतौ स्तः। मृतकौ गोदावरी नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य 55 वर्षीया महेश्वरी धमला, 44 वर्षीया कल्पना साउच वर्तेते इति प्रहरिणा ज्ञापितमस्ति। संखुवासभा जनपदात् धराननगरं प्रति प्रस्थीयमानं बसयानं धनकुटा नगरपालिकायाः नवमवडा क्षेत्रस्य मूलघाट स्थाने दुर्घटितं सद्वादश जनाः आहताः वर्तन्ते इति समाचारः।